रसुग्मन्दाधियसानस्य सक्षणीभरेभिर्वराम् अविलुप्रसीदनः अस्माकमिन्द्रभुवयम् जुजोषति यत् सोम्यस्याम् दशोपबोधति वीरयासि दिव्यानि रोचनाविपार्थिवा निरजसा पुरुष्टुत ये त्वावहम् तिमुहूरध्वराम् उपते सुवन्वध्वराङ्गाराधसाः तदिन्मेच्छम् सर्वपुष्टरम् पुत्रो यज्जानम् पित्रो रधीयति जायापतिम् वहति भग्नुना सुमत्पुंसयद्भद्रो वाहतुः परिष्कृतः तदित् सदस्तमभिकारो दीदजगावोरच्छासम् वहतन्नधेनवाः माता जन्मन्दुर्ज्योतस्य पूर्याभिमानस्य सप्तधा धृतिजनाः प्रवोच्छारिते देवयुष्पदमेको रुद्रेभिर्व्यासि दुर्वणीः जराबालेष्वमृतेषु धावने परिबभूमेभ्यस्मिञ्च धामधु धीयमानवभागोलमत्सुप्रमे देवानाम् व्रतपावुवाच इन्द्रो विद्वाङ्गा चक्षते नाहमग्ने अनुसिष्टागाम् अक्षेत्रविक्षेत्रविधम् प्रात्सप्रैतिक्षेत्रविधानुसृष्टः एतद्वै भद्रमनुदासनस्योतश्रुतिम् इन्द्रत्यञ्जशीलाः अद्येतप्राणीनमन्निमाहावीवृतो अभयम् मातुरूधाः देवे नमाभजनिमायुवा नमहे रन्वसुः सुमना बभूव एतानि भद्राकारसक्रिया मगुरुश्रवणदतो मघानि दानयिद्वो मघवानस्तो अस्त्वयम् दसोमो हृदयम् विभर्मि।